प्रथमोऽध्यायः विनियोगः। ॐ प्रथम चरित्रस्य ब्रह्मा ऋषिः महाकाली देवता गायत्री छन्दः नन्दा शक्तिः रक्तदन्तिका बीजम् अग्निस्तत्त्वम् ऋग्वेदः स्वरूपम् श्रीमहाकाली प्रीत्यर्थे प्रथम चरित्रजपे विनियोगः। ध्यानम्। ॐ खड्गं चक्रगदेषु चापपरिघाञ्छूलम्भुशुण्डिं शिरः शङ्खं सन्दधतीं करस्त्रिनयनां सर्वाङ्गभूषावृतां नीलाश्मदुतिमस्य पाददशकां सेवे महाकालिकां यामस्तस्त्वपि ते हरो कमलजो हन्तुं मधुं कैटभम्। ॐ नमश्चण्डिकायै। ॐ ऐं मार्कण्डेय उवाच। सावर्णैः सूर्यतनयो यो मनुः कथ्यतेष्टमः निशामय तदुत्पत्तिं विस्तराद् गदतो मम महामायानुभावेन यथा मन्वन्तराधिपः स बभूव महाभागः सावर्णिस्तनयो रवेः स्वारोचिखेन्तरे पूर्वं चैत्रवंशसमुद्भवः सुर्थो नाम राजा भूत् समस्ते क्षितिमण्डले तस्य पाल्यतः सम्यक् प्रजाः पुत्राणि वरुषान् बभूवुः शत्रवो भूपाः कुला विध्वंसिनस्तदा तस्य तैर्भवद्युद्धं मतिप्रबलदण्डिनः न्यूनैरपि शतैर्युद्धे कोला विध्वंसि भिर्जितः ततः स्वपूर्वमायातो निजदेशाधिपो भवत् आक्रान्तः स महाभागस्तैस्तदा प्रबलाडिभिः अमात्यैर्बलिभिर्दुष्टे दुर्बलस्य दुरात्मभिः कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ततो मृगया व्याजेन हृतस्वाम्यः स भूपतिः एकाकी हैमारुह्य जगाम गहनं वनं स तत्राश्रममद्राक्षिद द्विजवर्यस्य मेधशः प्रशान्तस्वापदाकिरणं मुनिशिशोपशोभितं तस्थो कञ्चित् सकालं च मुनिना तेन सत्कृतः इतश्चेतश्च विचरन् तस्मिन् मुनिवराश्रमे शोचिन्त्यतदा तत्र ममत्वाकृष्टचेतनः मत्पूर्वः पालितं पूर्वं मया हीनं पुरं हि तत् मदभृत्यैस्तैरसद्वृत्तैः धर्मतः पाल्यते न वा न जाने स प्रधानो मे शूरहस्ति सदा मदः मम वैरिव संज्ञातः कान् भोगानुपलप्स्यते ये ममानुगता नित्यं प्रसादधनभोजन हि अनुवृत्तिं ध्रुवं त्यज्य कुर्वन्त्यन्यमहि भृताम् असम्यगव्यशीलैस्तैः कुर्वद्भिः सततं व्ययं सञ्चितः सोति दुःखेन क्षयङ्कोशो गमिष्यति एतच्चान्यच्च सततं चिन्तयामास पार्थिवः तत्र विप्राश्माभ्यासे वश्यमेकं तदर्शसः स्वपृष्टस्तेन कस्त्वं भो हेतुश्चागमनेत्रकः शशोक इव कस्मात् त्वं दुर्मणा इव लक्षसे इत्याकर्णवचस्तस्य भूपतेः प्रणयोदितं प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपं वैश्योवाच समाधिर्नां वैश्योऽहमुत्पन्नो धनिनां कुले पुत्रोदारनिरस्तश्च धनलोभाद साधुभिः विहीनश्च धनैर्दारहे पुत्रैरादाय मे धनं वनं भ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः सोऽहं न वेद्भिः पुत्राणां कुशलाकुशलात्मिकां प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः किं नु तेषां गृहे क्षेम क्षेमं किं नु साम्प्रतं धन्ति किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः राजोवाच यैर्निरस्तो भवान् लुब्धः पुत्रोदाराधिभिर्धनः तेषु किं भवतः स्नेहमनुवधनाति मानसं वैश्योवाच एवमेतद्यथा प्राह भवान् अस्मद्गतं वचः किं करोमि न वध्नाति मम निष्ठुरतां मनः यः संत्यज्य पितृस्नेहं धनलोभधैर्निराकृतः पतिस्वजनहर्दं च हर्दितेष्वेव मे मनः किमेतन्नाभिजानामि जानान्नपि महामते यत्प्रेम प्रवणं चित्तं विगुणेक्ष्वपि बन्धुषु तेषां कृते मे निःश्वासो दौर्मणस्यं च जायते करोमि किंयन मन तिख प्रीतिष्ठु निष्ठुरम। मार्कण्डेय उवाच ततस्तौ सहितौ विप्रतं मुनिं समुपस्थितौ समाधिर्नाम वैश्योऽसौ स च पार्थिव सत्तमः कृत्वा तूतो यथा न्यायं यथार्हं तेन संविदम्। उपविष्टो कथा काश्चिचक्रतुर्वैश्य पार्थिवौ राजोवाच भगवन् स्वामहं प्रष्टुमेक्षामेकं वदस्व तत् दुःखायन्मे मनसः स्वचित्तायत्ततां विना मम त्वं गतराज्यस्य राज्याङ्गे सुखिलेष्वपि जानतोऽपि यथाज्ञस्य किमे तन्मुनिसत्तम। अयं च निकृतः पुत्रैर्दाडैर्भृत्यैस्तथोज्झितः स्वजनेन च संतक्तेषु हार्दी तथाप्यति एवमेख तथाहं च द्वावाप्यत्यन्तदुःखितौ। दृष्टदोषेऽपि विषये मम त्वाकृष्टमानसौ तत्किन्मे तन्महाभाग यन्मोहो ज्ञानिनोरपि ममास्य च भवत्येखा विवेकान्धस्य मूढता। ऋषिरुवाच ज्ञानमस्ति समस्तस्य जन्तुर्विषयगोचरे विषयश्च महाभाग याति चैवं पृथक् पृथक् दिवान्धाः प्राणिनः केचिद्रात्राबन्धास्तथा पडे केचित् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः। ज्ञानिनो मनुजाः सत्तं किन्तु ते न हि केवलं यतो हि ज्ञानिनः सर्वे पशुपक्षी मृगादयः ज्ञानं च तन्मनुष्याणां यत्तेषां मृपक्षीणां मनुष्याणां च यत्तेषां तुल्यमन्नतथोभयोः। ज्ञानेऽपि सति पश्येतान् पतङ्गाञ्छावचञ्चुखो कर्णमुच्छाद्रतान् मोहात् पीड्यमानानपि क्षुधा मनुषा मनुजव्याघ्रशाभिलाषा सुतान् प्रति लोभात् प्रत्युपकाराय नन्दतान् किं न पश्यसि तथापि ममता वर्ते मोहगर्ते निपातिताः। महामाया प्रभावेण संसारे स्थितिकारिणा तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः। महामाया हरश्चखातया सम्मोह्यते जगत् ज्ञानीनामपि चेतांसि देवी भगवती हि सा बलादाकृष्यमोहाय महामाया प्रयच्छति तया विसृजते विश्वं जगति तच्चराचरं सहसा प्रसन्नावृता नृणीनां भवति मुक्तये। सा विद्या परमा मुक्तिर्हेतुर्भूता सनातनी संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी। राजोवाच भगवन् का हि सा देवी महामायेति यं भवान् ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्म विदाम्बर। ऋषिरुवाच नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततं तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम देवानां कार्यसिद्ध्यर्थम् आविर्भवति सा यदा उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते। योगनिद्रां यदा विष्णुर्जगते कारणविकृते आस्तीर्यशेषभत्कल्पान्ते भगवान् प्रभो तदा द्वावसुरो घोरो विख्यातो मधुकैटभो विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ स्वनाभिकमले विष्णोः स्थितो ब्रह्म प्रजापतेः। दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनं तुष्टाव योगनिद्रां तामेकाग्रहृदया स्थितः। विबोधनार्थाय हरिर्हरिनेत्रकृतालयां विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीं निद्रां भगवतीं विष्णुर्दुलां तेजसः प्रभुः। ब्रह्मोवाच त्वं स्वाहा त्वं सुधा त्वं हि वषट्काढः स्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्यायानुच्चार्या विशेषतः त्वमेव संध्या सावित्री त्वं देवी जननी परा त्वयेतद्धार्यते विश्वं त्वयेतत्सृज्यते जगत् त्वयेतत्पाल्यते देवी त्वमत्सन्ते च सर्वदा। विसृष्टौ सृष्टरूपा त्वं स्थितिरूपा च पालने तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोह च भवति महादेवी महासुरी प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभावणी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वं सृष्ट्वमीश्वरी त्वं हृष्त्वं बुद्धिर्बोधलक्षणा लज्जापुष्टिस्तता तुष्टिस्त्वं शान्तिः छान्तिरेव च। खरगणी सुलणी घोरा गदिनी चक्रणी तथा शंखणी चापनी बन भुसुंडी परिघायुधा सौम्या सौम्य तराशे सौम्य भस्वती सुंदरी परापराणाम परमात्मेव परमेश्वरी यच्च किंचित त्वक्वचिद्वत्सु सदसद्वाखिलात्मिके तस्य सर्वस्य आसक्ते सात्वं किं अस्तुयसे तदा यया त्वया जगत् स्रष्टा जगत् पात्यति यो जगत् सोऽपि निद्रावसन्नितः कस्त्वाम् अस्तु तुमीहेश्वरः विष्णुः शरीरग्रहण महमीषाण एव च कारितास्ते यतो तस्त्वाम् कह अस्तो तुम शक्तिमान भवेत् सात्वमित्थं प्रभावहे स्वरुदैर्देवि संस्तुता मोहयैतो दुराधर्षावसुरो मधुकैत भौ प्रबोधं च जगत् स्वामी नियतामच्युतो लघु बोधश्च क्रियतामस्य हन्तु मेतो महासुरो ऋषिरुवाच एवम् अस्तुता तदा देवी तामसी तत्र वेधसा विष्णुः प्रबोधनार्थाय निहन्तुं मधुकैत भौ नेत्रस्य नासिका बाहु हृदयेभ्यस्तथो रसः निर्गम्य दर्शने तस्थो ब्रह्मणो व्यक्तजन्मनः उतस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ईकार्णवेहेश्यना ततः सद्दृशे चतौ मधुकैटभौ दूरात्मा नावति वीर्य पराक्रमौ क्रोधरक्ते छनावत्तुं ब्रह्माणं जनितोद्यमौ समुत्थाय ततस्ताभ्यां युयोधे भगवान् हरिः पञ्चवर्षसहस्राणि बाहु प्रहरणो विभुः तावप्यतिबलोन्मत्तौ महामाया विमोहितौ उक्तवन्तौ वरस्मत्तौ उड़ीयतामिति केशवम् श्रीभगवानुवाच भवेता मध्यमे तुष्टो मम बद्याबुभावपि किमन्येन वरेणात्र एतावद्धि वृतं मम ऋषिरुवाच वञ्चिताभ्यामिति तदा सर्वमापो मयं जगत् विलोक्यताभ्यां गदितो भगवान् कमलक्षणः आवां जहिने यत्रोर्वी सलिलेन परिप्लुता ऋषिरुवाच तथेतुक्त्वा भगवता शङ्खचक्रगदाभृता कृत्वा चक्रणवैच्छिन्ने जघने शिरीशीतयोः एवमेखा समुत्पन्ना ब्रह्मणा संस्तुता स्वयं प्रभावमस्यात् देव्यास्तु भूय शृणु वदामि ते ऐं ॐ श्रीमार्कण्डेयपुराणे सवर्णिके मन्वन्तरे देवी महात्म्ये नाम प्रथमः ॐ तत्सत् द्वितीयोऽध्यायः विनियोगः ॐ मध्यम चरित्रस्य विष्णुर्ऋषिः महालक्ष्मीर्देवता उष्णीक्षन्दः साकम्भरी शक्तिः दुर्गा बीजं वायुस्तत्त्वं यजुर्वेदः स्वरूपं श्रीमहालक्ष्मी प्रीत्यर्थं मध्यम चरित्र जपे विनियोगः ध्यानम् ॐ अक्षस्रकपरशुङ्गदेशुकुलिशं पद्मं धनुषुकुण्डिकां दण्डं शक्तिमशिं च चरमजलजं घण्टां सुराभाजनं शूलं पाशसुदर्शने च दधतिं हस्तैः प्रसन्नाननां सेवे शैरीभमर्दनीमिह महालक्ष्मीं सरोजस्थिताम् ॐ ह्रीं ऋषिरुवाच देवासुरं बुद्ध्युद्धं पूर्णमब्धशतं पुरा मैखीसुराणां धीपे देवानां च पुरन्दरे तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितं जित्वा च सकलान् देवानिन्द्रो भुन्मैखासुरः ततः पराजिता देवाः पद्मयोनिं प्रजापतिं पुरस्कृत्य गतास्तत्र यत्रेश गरुडध्वजो यथावृत्तं तयोस्तद्दन्मैखासुरचेष्टितं त्रिदशाः कथयामासुरदेवाभिभवविस्तरं सूर्येन्द्राग्ननीलेन्दूनां यमस्य वरुणस्य च अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि विचरन्ति यथा मर्त्या मैखेण दुरात्मना एतद्वः कथितं सर्वं मराडि विचेष्टितं स शरणं वः प्रपन्नाः कृष्णो वधस्तस्य विचिन्त्यताम्। इत्थं निशम्य देवानां वचांसि मधुसूदनः चकार कोपं सम्भुश्च भ्रुकुटिकुटिलाननो ततोति कोपपूर्णस्य चक्रेण वदनात्ततः निश्चक्रां महत्तेजो ब्रह्मणः शङ्करस्य च अन्येषां चैव देवानां शक्रादीनां शरीरतः निर्गतं सुमहत्तेजश्चक्रं समगच्छत। अतीव तेजसः कूटं ज्वलन्तमेव पर्वतं ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्। एकस्थं तद्भुन्नारी व्याप्तलोकत्रयं तुषा यद्भूच्छाम्भवं तेजस्तेनाजायत् तन्मुखम् याम्येन चाह्वन् केशा बाहवो विष्णुतेजसा सौम्येन अस्तनयोर्युग्मं मध्यं चन्द्रेण चाभवद् वारुणेन च जङ्घोरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्कतेजसा वसूनां च कराङ्गुल्यः कवेरेण च नासिका तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा नयनत्रितयं यज्ञे तथा पावकतेजसा भ्रुवौ च सन्धयोस्तेजः श्रवणावनीलस्य च अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ततः समस्तदेवानां तेजो राशिसमुद्भवाम् तां विलोक्यमुदं प्रापुर्मरा महिषार्दिताः शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् चक्रं च दत्तवान् कृष्ण समुत्पाद्य स्वचक्रतः शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः मारुतो दत्तवानश्चापं बाणपूर्णे तथेकुधि वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् कालोदण्डादमोदण्डं पाशं चाम्बूपतिर्ददौ प्रजापतिश्चाच्छमालं ददौ ब्रह्माकमण्डलं समस्तरोमकूपेषु निजरश्मिं दिवाकरः कालश्च दत्तवान् खर्गं तस्याश्चर्म च निर्मलं क्षीरोदश्चामलं हारमजरे च तथाम्बरे चूडामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुभ्रं केयूरं सर्वबाहुषु नूपुरो विमलौ तद्वद्ग्रैवयकमनुत्तमम् अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुं चात्कनिर्मलम् अस्त्रान्यनेकरूपाणि तथा भेद्यं च दंशनम् अम्लान् पङ्कजां मालां शिरसूरसि चापराम् अदत्तज्जलधिस्तस्यै पङ्कजं चातिशोभनम् हनुवान् वाहनं सिंहं रत्नानि विविधानि च ददाव शून्यं सूर्यापानपात्रं धनाधिपः शेषश्च सर्वनागेशो महामणिविभूषितं नागहारं ददौ तस्यै धत्तेयः पृथिवीमिमाम् अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा सम्मानितान्नादुच्चैः शाटः सङ्मुहुर्मुहुः तस्यानादेन घोरेण कृष्णमापूरितं नभः अमायताति महता प्रतिशब्दो महान् भूत् चक्षुभूषकला लोकाः समुद्राश्च च कम्पिरे चचाल वसुधा चेलुः सकलाश्च महीधराः जयेति देवाश्च मुदा तमूचुः सिंहवाहिनीं तुष्टवर्मुनयश्चैनां भक्ति नम्रात्ममूर्तयः दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्य मम राडयः सन्नद्धाखिलसैन्यास्ते समुत्तस्थूरुदायुधाः आह किमेतदिति क्रोधादाभाष्यमयि खासुरः अभ्यधावत्तं शब्दमशेषैरसुरैर्वृतः स ददर्शतो देवीं व्याप्तलोकत्रयं तुषा पादाक्रान्त्यानद्भुवं किरीटोलिखिताम्बरं क्षोभिताशेषपातालां धनुर्जानि स्वनेनताम् दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थितां ततः प्रभवृते युद्धं तया देव्यासुरद्विषां शस्त्रास्तैर्बहुधा मुक्तैरादिपीतदिगन्तरं मैखासुरसेनानिश्चक्षुराक्षो महासुरः युयुधे चामडश्चान्यश्चतुरङ्गवलान्वितः रथानां युतः खड्गभिरुदग्राक्षो महासुरः अयुधतायुतानां च सहस्रेण महाहनुः पञ्चाशद्भिश्च न्यूतैर्शीलो मा महाशुरः अयुतानां सतः सद् हिर्वास्कलो युयुधिरणे गजवाजी सहस्त्रौ घेरणैकैः परिवारितः वृदोरथानां कुट्या च युद्धे तस्मिन् युध्यत विदालाख्यो युतानां च पञ्चाशद्भिर्थायुतिः युयुधे संयुगे तत्र रथानां परिवारितः अन्ये च तत्रायुत्सो रथनागः यैर्वृताः युयुधु संयुगे देव्या स तत्र महासुराः कोटिकोटिसहस्रैस्तु रथानां दन्तीनां तथा हयानां च वृतो युद्धे तत्राभूमैखासुरः तोमरैर्भिन्दिपालैश्च शक्तिर्भिर्मुसलैस्तथा युयुधु संयुगे देव्या खड्गः परशुपट्टिशः केचिच्चिच्छिपुः शक्तिः केचित् पाशांस्तथा परे देवीं खड्गप्रहरेस्तु ते तां हन्तुं प्रचक्रमुः सापि देवी ततस्तानि शस्त्रानिस्राणि चण्डिका लीलियैव प्रचिच्छेद निजशस्त्रास्त्रवर्षणे अनायस्तानना देवी अस्तु यमाना सुरर्षिभिः मुमोचासुरदेहेषु शस्त्रानस्राणि चेश्वरी सोऽपि क्रुद्धो धुत्सटो देव्या वाहन केसरी चचारासुरसैन्येषु अनेक्षीव हुताशनः निःश्वासान् मुचेयन् स युध्यमाना रणम्बिका तो एव सद्यः सम्भूता गणा शतसहस्रशः युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिसहे नाशयन्तो सुरगणान् देवी शक्त्युपबृंहिताः अवादयन्त पटहान गणाः शङ्खास्तथा पडे मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्च सत्सो निजघाण महासुरान् पातयामास च वान्यान् घण्टासन् विमोहितान् असुरान् भुवि पाशेन बद्ध्वा चान्यान् कर्षयत् केचिदद्युधा कृतास्तीक्ष्णैः खड्गपातैस्तथा पडे विपोथिता निपातेन गदया भुवि शेरते वेमुश्च केचित् रुधिरं मुसलेन भृसंहताः केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि निरन्तराः सरोघेण कृताः केचिद्रणाजिरे सेनानुकारिणः प्राणान् मुमुचोस्त्रिदशार्दनाः केशांश्चिद् बाहवश्छिन्नाच्छिन्न ग्रीवास्तथा पडे शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः विच्छिन्न जङ्घास्तपरे पेतुरोऽव्यां महासुराः एकबाहवश्चिच्चरणाः केचिद् देव्या दुधा कृताः छिन्नेऽपि चान्ये शृशि पतिताः पुनरुत्थिताः कबन्धा युयुधुर्देव्या गृहीत परमायुधाः नृतुश्चापरे तत्र युद्धे तुर्यलयाश्रिताः कबन्धाश्छिन्न शिरसः खड्गसत्तृष्टिपाणयः तिष्ठतिष्ठेति भाषन्तो देवी मन्ये महासुराः पातितैरथनागास्वैरसुरैश्च वसुन्धरा अगम्या सा भवत्तत्र यत्राभूत् समहारणः शोणितौ घामहानद्यः सद्यस्तत्र पुशुश्रुवुः मध्ये चासुरसैन्यस्य वारणासुरवाजिनां क्षणेन तन्महासैन्यम् असुराणां तथाम्बिका निन्ये छथा वह्निस्तृणदारु महाचयम् स च सिंहो महानादमुष्टिजन्धूतकेसरः शरीरेभ्यो मराडीणामशूनिव विचिन्वते देव्या गणैश्च तैस्तत्र कृतं युद्धं महासुरहे यथा शान्ततोऽसुरदेवाः पुष्पवृष्टिमुचो देवे ॐ श्रीमार्कण्डेयपुराणे श्रीशावर्णिके मन्वन्तरे देवी महात्म्ये नाम द्वितीयः ॐ तत्सत्।